अथ श्री अंगारकाष्टोत्तरशतनामस्तोत्रम्।
महीसुतो महाभागो मंगलो मंगलप्रदः महावीरो महाशूरो महाबलपराक्रमः महारौद्रो महाभद्रो माननीयो दयाकरः मानदो मनुषणक्रूरस्तापपापविवर्जितः सुप्रदीपश्रुताम्राक्षः सुब्रह्मण्यसुखप्रदः वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी वीरभद्रो विरूपाक्षो विदूरस्थो विभावसु नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः क्षयबुद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः अक्षीणफलदश्चक्षुर्गोचरः सुफलक्षणः वीतरागो वीतभयो विज्वरो विश्वकारणः नक्षत्रराशिसञ्चारो नानाभयनितृङ्कनः कमनीयो दयासारः कनत्कनकभूषणः भयघ्नो भव्यफलदो भक्ताभयवरप्रदः शत्रुहन्ताशमोपेतः शरणागतपोषकः साहसस्सद्गुणाध्यक्षः साधुस्समरदुर्जयः दुष्टदूरशिष्टपूज्यः सर्वकष्टनिवारकः दुश्चेष्टावारको दुःखभञ्जनो दुर्धरो हरिः दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः भरद्वाजकुलोद्भूतो भूषितो भव्यभूषणः रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः चतुर्भुजो गदाधारी मेषबाहोमिताशनः शक्तिसूरधरशक्तशस्त्रविद्याविशारदः तार्किकस्तामसाधारस्तपस्वीताम्रलोचनः तप्तकाञ्चनसङ्काशो रक्तकिञ्जल्कसन्निभः गोत्राधिदेवो गोमध्यचरो गुणविभूषणः अश्रुगङ्गारकोवन्ति देशाधीशो जनार्दनः सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिन्मुखः त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः शुचिः शुचिकरः शूरो शुचिभस्य सुभावहः मेषवृश्चिकराशीशो मेधावीमितभाषणः सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः अङ्गारकग्रहस्यैवम् नाम्नामष्टोत्तरम् शतम्।
इति श्री अङ्गारकाष्टोत्तरशतनामस्तोत्रम्।